आदौ हैरण्यगर्भीं तनुमविकलजीवात्मिकामास्थितस्त्वं जीवत्वं प्राप्य माया गुणगणखचितो वर्तसे विश्वयोने तत्रोद्वृद्धेन सत्त्वेन तु गुणयुगलं भक्तिभावङ्गतेन छित्त्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिता हे त्वमेव सत्त्वोन्मेषात् कदाचित् खलु विषयरसे दोषबोधेऽपि भूमन् भूयोऽप्येषु प्रवृत्तिः स तमसि रजसि प्रोद्धते दुर्निवारा चित्तं तावद्गुणाश्च ग्रथितमिह मिथस्तानि सर्वाणि रोद्धुम् तुर्ये त्वय्येकभक्तिः शरणमिति भवान् हंसरूपी न्यगादीत् सन्ति श्रेयांसि भूयांस्यपि रुचिभिदया कर्मिणान् निर्मितानि क्षुद्रानन्दाश्च सान्ता बहुविधगतयः कृष्ण तेभ्यो भवेयुः त्वं चाचख्याथ सख्ये ननु महिततमाम् श्रेयसां भक्तिमेकाम् त्वद्भक्त्यानन्दतुल्यः खलु विषयजुषाम् सम्मदः केन वा स्याम् त्वद्भक्त्या तुष्टबुद्धे सुखमिह चरतो विच्युताशस्य चाशाः सर्वास्युस्सौख्यमय्यः सलिलकुहरगस्येव तोयैकमय्यः सोऽयं खल्विन्द्रलोकं कमलजभवनैर्योगसिद्धीश्च हृद्याः नाकाङ्क्षत्येतदास्तां स्वयमनुपतिते मोक्षसौख्येऽप्यनीहः त्वद्भक्तो बाध्यमानोऽपि च विषयरसैरिन्द्रियाशान्तिहेतोः भक्त्यैवाक्रम्यमाणैः पुनरपि खलु तैर्दुर्बलैर्नाभिजय्यः सप्तार्चिर्दीपितार्चिर्दहति किल यथा ऊरिदारप्रपञ्चम् त्वद्भक्त्योघे तथैव प्रदहति दुरितं दुर्मदः क्वेन्द्रियाणां चित्तार्द्रीभावमुच्चैर्वपुषि च पुलकं हर्षबाष्पं च हित्वा चित्तं शुद्ध्येत् कथं वा किमु बहु तपसा विद्यया वीतभक्तेः त्वद्गाथा स्वादसिद्धाञ्जनसततमरीमृज्यमानोऽयमात्मा चक्षुर्वत्तत्त्वसूक्ष्मं भजति न तु तथाभ्यस्तया तर्ककोट्या ध्यानन्ते शीलयेयं समतनुसुखबद्धासनो नासिकाग्रन्यस्ताक्षः पूरकाद्यैर्चितपवनपथश्चित्तपद्मं त्ववाञ्चम् ऊर्ध्वाग्रं भावयित्वा रविविधुशिखिनः संविचिन्त्योपरिष्टात् तत्र स्थं भावये त्वां स जल जलधर श्यामलं कोमलाङ्गम् अनीलश्लक्ष्णकेशं ज्वलितमकरस कुण्डलं मन्दहासस्यन्दार्द कौस्तुभश्री परिगतवानमालोरुहाराभिरामम् श्रीवत्साङ्कं सुबाहुं मृदुलसदुदरं काञ्चनच्छायचेलम् चारुस्निग्धोरुमम्भोरुहललितपदं भावयेऽहं भवन्तम्। सर्वाङ्गेष्वङ्गरङ्गत् कुतुकमिति मुहुर्धारयन्नीश चित्तम् तत्राप्येकत्र युञ्जे वदन सरसिजे सुन्दरे मन्दहासे तत्रालीनन्तु चेतः परमसुखचिद्वैतरूपेदि तन्वन् अन्यन्नो चिन्तयेयं मुहूर्ति समुपारूढयोगो भवेयम् इत्थं त्वध्यानयोगे सति पुनरणिमाद्यष्टसंसिद्धयस्ताः दूरश्रुत्यादयोऽपि ह्यहमहमिकया सम्पतेयुर्मुरारेः त्वत्सम्प्राप्तौ विलम्बावहमखिलमिदं नाद्रिये कामयेऽहम् त्वामेवानन्दपूर्णं पवनपुरपते पाहि मां सर्वतापात् सदा सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्दा गोविन्दा नारायणा अखिलगुरो भगवन्नमस्ते।